बुद्धिपते त्रक्ष लक्षलाभ पितु पितः नागास्यं नागहारं नागास्यं नागहारं त्वां गणराजं चतुर्भुजं भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरश्वधैः आवाहयामि पूजार्थं रक्षार्थं च मम क्रतोः इहागत्य गृहाणत्वं पूजां यागं च रक्षामि।